सर्वेभ्यो नमो नमः.
ॐ वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वती परमेश्वरौ. ॐ ॐ एनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. ॐ ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्तिः 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 अस्मद्गुरुभ्यो नमः. धन्यवादः भगिनी.
कविता भगिनी नमस्कारः.
नमस्कारः क्षम्यताम्.
नमस्कारः कविता भगिनी.
नमस्कारः सुधा भगिनी. नमस्कारः शैलजा भगिनी.
नमस्कारः कविता भगिनी.
अस्तु पुटसङ्ख्या 41 इति गतवर्गे अपि च तस्य गतवर्गे अपि एका कथां पठितवन्तः. प्रथमतया तु यथा दत्तं तदनन्तरं परिवर्तनं कृत्वा वयं पठामः. एकमेकं स्वीकृत्य सम्पूर्णकथा पठितवन्तः वा परिवर्तयित्वा? सम्पूर्णकथां पठितवन्तः वा परिवर्तनं कृत्वा गतवर्गे?
आं भगिनि,
अस्तु. सुधा भगिन्याः प्रश्न आसीत्. प्रश्नः किम्? हा, अन्ये अपि वानराः एतत् पश्यन्ति, ते अपि शिरस्त्रम् इच्छन्ति, अतः अधः आगच्छन्ति, शिरस्त्राणि धारयन्ति, वृक्षे उपविशन्ति. अधुना प्रश्नः कः? यदि तव तु योजयित्वा वयं वदामः, कथं वक्तव्यम्? इत्युक्ते अन्ये अपि वानराः एतत् पश्यन्ति परिवर्तनं कृत्वा.
दृष्टवन्तः
ते अपि शिरस्त्रम्
इष्टवन्तः,
अतः अधः
आगतवन्तः
शिरस्त्राणि
धारितवन्तः.
ते धारितवन्तः वृक्षे
उपविष्टवन्तः.
तदेव. किन्तु प्रश्नः तु उदेति अत्र, यदि कर्तृपदं नपुंसकलिङ्गम् अस्ति चेत्, यदि कर्तृपदं नपुंसकलिङ्गम् अस्ति चेत् रूपाणि कानि? इत्युक्ते गच्छन्ति, गतवान्, गतवती. स्त्रीलिङ्ग् अस्ति चेत् गतवती, पुंलिङ्ग् अस्ति चेत् इत्युक्ते रामः गतवान्, सीता गतवती. तदनन्तरं द्विवचने नपुंसकलिङ्गम् अस्ति चेत् इत्युक्ते किं किं गतवान् नपुंसकलिङ्गं किं कर्तृपदं सम्यक् अस्ति ऊहं करोतु
गतवत्
हा गतवत् किन्तु किं कर्तृपदं उचितं उचितम् अस्ति चेत् अस्तु किं नपुंसकलिङ्गं कर्तृपदम् उचितपदं किं कोऽपि ऊहां करोतु
भगिनि
वदतु
अग्रिमं पाराग्राफ् क्या बोल्ते संस्कृत
परिच्छेद
अग्रिमपरिच्छेद इति शिरस् त्राणि तत्र सन्ति
अस्तु 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 शिरस्त्राणि एव स्वीकृतवन्तः वयं करोतु अस्तु
दण्ड आल्सो नपुंसकलिङ्गपदं
दण्डं शिरस्त्रं गतवत् शिरस्त्रं गतवत् एकं शिरस्त्रं गतवत् द्वे शिरस्त्रे गतवती दीर्घ ईकारान्त अस्ति तत्र यथा स्त्रीलिङ्गम् एकवचनरूपम् अस्ति तथा नपुंसकलिङ्गं द्विवचनमस्ति तव तु प्रत्यये अवगतं गतवत् एकवचनं गतवती शिरस्त्राणि गतवन्ति बहुवचनरूपं शिरस्त्राणि गतवन्ति इति अवगतं सर्वे
आं भगिनि
हा शिरस्त्राणि गतवन्ति द्वे शिरस्त्रे गतवती कथं जानीमः नपुंसकलिङ्गम् अस्ति अत्र कर्तृपदं द्विवचनमस्ति अवगतं कविता भगिनी सरोजा भगिनी
आं भगिनि
भगिनि ऐ एम् ट्रैङ्ग् मै बेस्ट् टु अण्डर्स्टाण्ड् बट् इट्स् अ लिटल्
अस्तु यदि पुंलिङ्गम् अस्ति चेत् इत्युक्ते रामः रामः गतवान् इत्युक्ते कविता भगिनी रामः गतवान्
राम गए
गए उत्तमं सीता गतवती
सीता गए बट वो स्त्रीलिङ्ग है इसीलिए गतवती
सीता गई गई
सीता गई
हाँ गई शिरस्त्रं गतवत् टोपी गई शिरस्त्रं गतवत् अस्तु रामः रामौ गतवन्तौ इत्युक्ते इत्युक्ते
दो राम है वो गए
सीते किं गतवत्यौ
दो सीता गए
गई
मतलब गई हाँ मतलब मैं वो रिस्पेक्टफुली तो गए तो हाँ दो सीता गई
रिस्पेक्टफुली गई इज रिस्पेक्टफुल इज फेमिनिन रिस्पेक्टफुल हाँ नेजल गई नॉन नेजल नॉन नेजल इंटिमेट नेजल गई रिस्पेक्टफुल हाँ तदनंतरम शिरस्त्रे
गतवती दीर्घ नपुंसकलिङ्गम् अस्ति चेत् शिरस्त्रे गतवती तदनन्तरं रामाः इत्युक्ते सीतालक्ष्मणरामाः सीतालक्ष्मणराम च गतवन्तः इत्युक्ते
गए
उत्तमं तदनन्तरं सीता रमा लता गतवत्यः
वो तीनों गई इसलिए प्लूरल बहुवचन ऑफ स्त्रीलिंग
शिरस्त्राणि गतवन्ति गतवन्ति इति इत्युक्ते नपुंसकलिङ्गम् अस्ति चेत् गतवन्ति गतवत् गतवती गतवन्ति उक्तवत् उक्तवती उक्तवन्ति खादितवत् खादितवती खादितवन्ति श्रुतवत् श्रुतवती श्रुतवन्ति तथा अवगतम् अस्तु उत्तमप्रश्नः सुधा भगिनी धन्यवादः अस्तु
धन्यवादः भगिनी
अग्रिमं कुर्मः 11.3 दीर्घ ई अस्ति एकः अभ्यासः शैलजा भगिनी पठतु
आं भगिनि 11.3 दीर्घ ईकारान्त भगिनी एतत् दृष्ट्वा कः कदा कुत्र आसीत् इति लिखतु
इत्युक्ते
लुकिङ्ग् एट् दिस्
एकनिमिष भगिनि इत्युक्ते लघु लघु वाक्यानि कानि कर्तृपदं किं क्रियापदं किं लघुवाक्यं किं
So he is asking us to use kaha, kada, kutra, katrupadam. It's like who, when and where.
Laku vakyam vadatu bhagini.
Kada asit.
Kada asit. Prathamataya tu mukhya vakyam, mukhya amsha kaha.
Sandeepaha kada.
Na. भगिनि एतत् दृष्ट्वा कः कदा कुत्र आसीत् इति लिखतु अधुना
आं भगिनि लिखतु आं भगिनि ऐ गाट् इट् लिखतु इति शब्दः क्रियापदम् अस्ति क्रियापदं सकर्मकक्रियापदम् अस्ति इति इस् अव्ययपदम् अस्ति आसीत् भूत्काल लिखतु लिखतु कः लिखतु कः लिखतु इस् वाट् टु रैट्
न कः लिखतु इत्युक्ते लिखतु कीदृशपदं क्रियापदं
क्रियापदमस्ति लोट् लकारः आज्ञाया प्रार्थना सकर्मकक्रियापदमस्ति
रूपम्
एक प्रथमपुरुष एकवचन शब्दः अस्ति
कर्तृपदं किं
कर्तृपदं कः लिखतु कर्तृपदम् इस् लैक् इम्प्लैड् भवती और् भवान् लिखतु
तदेव भवती वा भवान् वा लिखतु तदेव सुन्दरम् अग्रिमम्
आसीत् इति शब्दः भूतकालरूपं प्रथमपुरुष एकवचनशब्दः अस्ति कः कदा कुत्र प्रश्नवाचकशब्दः त्रीणि लिङ्गानि शब्दानि सन्ति
त्रीणि लिङ्गानि वा
कः कदा नो नो भगिनि सोरि कः प्रश्नवाचकशब्दः अस्ति शब्दानि सन्ति
प्रश्नवाचकशब्द कीदृशवाचकशब्द कः कीदृशप्रश्नवाचकः
कः इस् पुल्लिङ्गशब्दः प्रश्नवाचकशब्दः अस्ति, कदा इस् समयसूचक सूचकं प्रश्नवाचकं शब्दः अस्ति, कुत्र कुत्र स्थानवाचकं शब्दः अस्ति.
हा प्रश्न उत्तमं
प्रश्न अस्ति.
किन्तु प्रथमलघुवाक्यं तु भवान् लिखतु, भवती लिखतु. प्रथमवाक्यं तु भवान् भवती लिखतु. तदनन्तरं किं किं कृत्वा लिखतु?
एतत् कोष्टकेन दृष्ट्वा.
एतत् दृष्ट्वा लिखतु.
दृष्ट्वा इति शब्दः त्वान्तशब्दः अस्ति, अव्ययपदम् अस्ति. एतत् नपुंसकलिङ्गपदं एकवचनशब्दः अस्ति.
एतत् इत्युक्ते
एतत् इस् दिस् आर् दट् दिस् बेसिकलि
नपुंसकलिङ्ग इत्युक्ते एतत् एतत् किम् इति प्रश्न उदेति. एतत् किम्?
एतत् एक आज्ञा प्रार्थनापूर्वक प्रश्नः अस्ति.
मम प्रश्नः तु एतत् इत्युक्ते किम्? एतत् किम् अत्र?
एतत् एतत् एतत्
अत्र
नपुंसकलिङ्ग एतत्
समीचीनं
दृष्ट्वा कोष्टकं भगिनि. एतत् इस् कोष्टकं हियर्.
एतत् कोष्टकं दृष्ट्वा एतत् कोष्टकं दृष्ट्वा लिखतु. कं लिखतु? कं लिखतु?
वाक्यानि लिखतु.
लघुवाक्यानि लिखतु.
लघुवाक्यानि लिखतु.
उत्तमं. कीदृशवाक्यानि?
समयः अपि च स्थानः रूपेण प्रश्नानि सन्ति इति इति सम्यक् वाक्यानि भवति इति सूचयति.
वाक्यानि रचयतु.
रचयतु.
अस्तु, कोष्टके कीदृश ज्ञानं दत्तं, कीदृश जानकारी इत्युक्ते किं दत्तं कोष्टके? कविता भगिनी, सुधा भगिनी, कोऽपि वदतु. कोष्टके किं किं दत्तं?
संज्ञापदं समये.
संज्ञापदम् इत्युक्ते
नौन्स् फार् पीपल् नेम्स् आल्सो एण्ड् फार् थिङ्ग्स् आल्सो.
जनानां जनानाम्
जनानां जन मतलब पर्सन् पर्सन् का नाम जनानां
जनानां कीदृशरूपम्? जनः जनौ जनाः, जनं जनौ जनान्,
रामाणां.
उत्तमं. रामाणां रामाणाम् इत्युक्ते
रामः
शब्दं.
रामाणां जनानां
रामाणां
द्वितीय बहुवचनरूपं. नो, षष्टि.
षष्टि बहुवचनरूपम्.
उत्तमं सुधा भगिनी. षष्टि बहुवचनं जनानां इत्युक्ते जनानां किं? जनानां किं दत्तं?
लोगो का संबंध उनका नाम.
का के की? नामानि. जनानां नामानि. नामानि कथं जानीमः? नामानि कथं जानीमः? शब्दमञ्जर्यां पुटसङ्ख्या किं? त्रिपञ्च
नाम
पञ्चविंशत्
न पञ्चविंशत् पञ्चविंशत् न
पञ्चविंशतिः नाट् पञ्चविंशतिः भगिनि इट् इस्
त्रयपञ्चशीतिः
हा हा कथं वक्तव्यं
पञ्चदश पञ्चदशः भगिनि
पञ्चदश तु न भगिनि त्रि इत्युक्ते कथं वक्तव्यम्
इट् इस् 15 इन् मै शब्दमञ्जरि बुक्
त्रयः
पि डि एफ् ऐ थिङ्क्
त्रिपञ्चाशत् अपि च
त्रयः पञ्चाशत्
तमे पुटे इत्युक्ते त्रिपञ्चाशत् तमे पुटे अधोभागे दत्तं नामन् पश्यति वा सर्वे पश्यन्ति नकारान्त नपुंसकलिङ्गः नामन् शब्दः नामन् कीदृशपदं नपुंसकलिङ्गं पदम् अपि च नकारान्तपदमस्ति नामन् नामन् नकारान्तपदमस्ति इत्युक्ते अन्ते न अस्ति पपजि प्रणाम्
आशीर्वाद बेटा आशीर्वाद
अस्तु अभ्यासपुस्तके एकचत्वारिंशत् तमे पुटे एकचत्वारिंशत् अस्तु नामन् नामन् हा किं कविता भगिनी पठतु रूपाणि
नाम नाम्नि नामनि
भगिनि समीकरोतु भगिनि नाम
नाम नाम्नि नामनि नामानि हे नामन् हे नाम नाम हे नाम हे नाम्नि हे नामनि नाम्नि
नाम्नि
हे नाम्नि हे नामनि हे नामानि द्वितीय नाम नाम्नि नामानि नामानि
नाम्नि नामनि नाम्नि नामनि
नाम्नि नामनि
तदनन्तरं नामानि
नामानि
अग्रिमं तृतीय
राजन् शब्दवत्
हा राजन् शब्दवत् पठतु इत्युक्ते तृतीय अस्ति चेत् नाम्ना
No, I'm looking out for Rajan.
Rajan kutra asti nakaranta pumlinga padam.
Yeah, 36.
Namna. So,
namna. Namabhyam. Is that correct?
Namabhyam.
Namabhyam. Namabhi. Chaturthi. Namne. नामभ्यां नामभ्यः पञ्चमी नाम्नः नामभ्यां नामभ्यः षष्टि नाम्नः नाम्नोः नाम्नाम् सप्तमी नाम्नि नामानि नाम्नोः नामसु
इत्युक्ते सर्वाणि रूपाणि नकारान्त नपुंसकलिङ्ग नामन् इति प्रातिपदिकस्य रूपाणि सन्ति अस्तु अधुना तु कोष्टके 11.3 दीर्घ ई कुत्र अस्ति एकचत्वारिंशत् तमे पुटे एकचत्वारिंशत् तमे पुटे 11.3 दीर्घ इ एकं कोष्टकं दत्तं. कोष्टके किं किं दत्तं भगिनि? प्रथमस्तम्भे प्रथमस्तम्भे
जनानाम्
इत्युक्ते षष्ठी बहुवचन जनानां
षष्ठी बहुवचन विल् बी नाम्नाम्.
षष्ठी तु अत्र नास्ति. षष्ठी इत्युक्ते किं? कस्य नाम? जनस्य नाम. कस्य नाम? जनस्य नाम. एकजनस्य नाम न, किन्तु बहुवचनरूपम् अस्ति चेत् जनानाम् इत्युक्ते बहुवचनरूपं जनानां लोगो के जनानां नामानि लोगो के नाम नाम बहुवचन. हिंदी में नाम नहीं बदलता है, किंतु संस्कृत भाषायां नामानि एक नाम एकह ना एकम नामम रामः. द्वे नामनि राम लक्ष्मण च.
तो ये नाम का द्वितीय विभक्ति बहुवचन रूपम लेंगे हम नामानि.
न न न वाक्यम किम? नामानि सन्ति. कोष्टके किम्? नामानि सन्ति. सन्ति वा न वा? प्रथमस्तम्भे नामानि सन्ति. नामानि कीदृशपदम्?
नामानि
नपुंसकलिङ्गम्.
हा, नपुंसकलिङ्गम् विभक्ति कथं जानीमः? प्रथम बहुवचन
कर्तृपदमस्ति.
कर्तृपदमस्ति.
नामानि सन्ति. सन्ति वा न वा? नामानि सन्ति. बहु 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 किमपि नामानि सन्ति. सन्दीपः, दिव्या, कृष्णः, अहं, वयं, ते सर्वे नामानि. नामानि सन्ति. प्रश्न उदयति, केषां नामानि? केषां नामानि? किसका नाम है?
जनाः.
जनाः न, जनस्य एकवचनमस्ति चेत् जनस्य नाम, द्विवचनमस्ति चेत् जनयोः.
जनयोः
जनयोः किम्? जनयोः नामनि.
ओके, जनयोः नामनि.
द्विवचनम् अस्ति चेत् कर्तृपदं. यदि कर्तृपदं द्विवचनमस्ति चेत् नाम्नि अपि द्विवचनमस्ति चेत् दो लोके दो नाम है ना.
हाँ,
दोनों लोके एक ही नाम है. दैट इज ऑल्सो पॉसिबल. किंतु अत्र तु जनस्य नाम, जनयोः नाम्नि, अपि च जनानां नामानि बहुवचनरूपम्.
आं भगिनि.
हा, पूर्णसम्पूर्णवाक्यं वदतु.
जनयोः नाम्नि.
जनयोः कीदृशपदम्?
द्विवचनरूपं प्रथमविभक्ति.
प्रथमा कथं भगिनि? जनयोः जन जनः जनः इत्युक्ते रामः. जनः अकारान्त पुंलिङ्ग पदमस्ति चेत् रामः. रामयोः कीदृशपदम्?
रामयोः
रामयोः कीदृशपदम्?
षष्ठी. षष्ठी द्विवचनरूपम्.
अपि सप्तमी, अत्र तु षष्ठी एव. इत्युक्ते किं? रामयोः इत्युक्ते किं?
रामयोः षष्टि सम्बन्ध
दो राम के दो रामो के काके की षष्टि
हाँ
हाँ दो रामो काके की
Maybe
you should go and revise your Vibhakti class, Bhagini. It will be fast
yes,
for you.
Yes,
because you've done it all, just a quick revision will bring everything back. Huh?
Yes, so, yes. I started taking baby steps. Yeah, after listening to Sudha Bhagini's daily practice, I have started a little bit today onwards.
So, Jana Yoho, ityukte Dvau Janau सः चेत् जनयोः नाम्नि किन्तु अत्र तु बहुवचनरूप बहुवचन अस्ति किमर्थं सन्दीपः अस्ति दिव्या अस्ति कृष्णः अस्ति अहमपि वयं सर्वे अस्ति सन्ति बहुवचनरूपम् अस्ति वा अत्र इत्युक्ते षष्टि बहुवचनरूपं जनानां
राइट जनानां एंड देन इसका भी षष्टि का बहुवचन
नो इसका षष्टि
सो जन
लोगों के नाम दैट्स ऑल इट्स नॉट विशेषण विशेषण
हां हां हां
इट्स नॉट विशेषण
विशेषण
लोगों के नाम मम नाम व्हाट इज द फर्स्ट सेंटेंस वी लर्नड इन संस्कृत मम नाम कविता मम नाम इज नॉट विशेषण विशेष्य इज इट
नो सो दिस विल बी
षष्टि एकवचन नाम प्रत एकवचन मम नाम कविता
सो जनानां नामानि बिकॉज़ वी आर सेइंग दैट अ लॉट ऑफ पीपल्स नेम्स
तदेव जनानां नामानि सन्ति कुत्र सन्ति
प्रथमस्तम्भे
स्तम्भे
कोष्टके प्रथमस्तम्भे
सप्तमी उत्तमं तदेव उत्तमं सुधा भगिनी द्वितीयस्तम्भे किं दत्तं
द्वितीयस्तम्भे किञ्चित् समयविषये सन्ति
इत्युक्ते किं दत्तं संस्कृतभाषायाम् आङ्ग्लभाषायां च
संस्कृतभाषायाम् आङ्ग्लभाषायां च संख्याशब्दानि सन्ति समयसङ्ख्याः सन्ति
समय कीदृशपदं प्रथम तु इति वयं जानीमः समय कीदृशपदं भगिनि पुंलिङ्गं वा
नपुंसकलिङ्गम् अस्ति
पुंलिङ्ग समयः समयौ समयाः
समयाः
संख्याः सन्ति उत्तमम् उत्तमं तदनन्तरम् अन्तिमकोष्टके अन्तिमस्तम्भे किं दत्तं पापजी अस्ति वा पापजी नास्ति तत्र अस्तु अन्तिमस्तम्भे शैलजा भगिनी वदतु
आं भगिनि अन्तिमस्तम्भे सूचिकानि सन्ति स्थानानि सूचिकानि सन्ति
स्थान कीदृशपदं भगिनि
स्थानम् इस् ऐ गेस् नपुंसलग्नं बट् ऐ एम् चेकिङ्ग् इट् भगिनि
स्थान सो अन्तिमस्तम्भे किं दत्तं
स्थान इस् पुल्लिङ्गपदम् अस्ति एण्ड् देर् आर् नो 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 नपुंसकलिङ्गम् ओन्लि भगिनि स्थान इस् नपुंसकलिङ्गपदम् अस्ति
इत्युक्ते अत्र अन्तिमस्तम्भे किं
स्थानानि
दत्तानि
स्थानानि दत्तानि और् केन् ऐ से लैक् दिस् स्थानानि सूचिकानि
स्थानानां नामानि दत्तानि स्थानों के नाम दिए हैं पहले जनों के नाम थे स्थानानां रामाणां
स्थानानां स्थानानां
नामानि
दत्तानि
उत्तमम् अधुना किं कुर्मः दिबीना भगिनी नमस्ते अधुना किं कुर्मः वयं
नमस्ते भगिनि can you tell me which page you are in
41
thank you
we are looking at 11.3 dirgha e there is a box asu so aduna prathama stambah द्वितीय स्तम्भः अपि च तृतीय स्तम्भः सन्ति किन्तु वयं किं कुर्मः कः कदा कुत्र आसीत् इति लिखामः कः कदा कुत्र आसीत् इति लिखामः अस्तु सुधा भगिनी प्रथमवाक्यं वदतु
आं भगिनि यथा सन्दीपः दशवादने विद्यालये आसीत्
इत्युक्ते कर्तृपदं किं
सन्दीपः कर्तृपदमस्ति दशवादने विद्यालये दशवादने विद्यालये इति सप्तमी एकवचनम् अस्ति दशवादने विद्यालये इति विशेषणविशेष्यम् अस्ति
अस्ति वा विद्यालये इत्युक्ते कीदृशविद्यालये दशवादने विद्यालये
न न न दशवादने अपि
सप्तमी
अस्ति
किन्तु विशेष
किन्तु विशेषण नास्ति
समानेव किन्तु विशेषण नास्ति किमर्थं विशेषण नास्ति इत्युक्ते कीदृशविद्यालय इति किञ्चित् न विवृणोति सो सन्दीपः दशवादने विद्यालये आसीत् कीदृशपदमासीत्
आसीत् भूतकाल प्रथमपुरुष एकवचनरूपम् अस्ति
गण किम्
आसीत् अस्दातु अस्दातु अदादिगणः अस्ति द्वितीयगणः
सर्वाणि रूपाणि वदतु
आसीत् आस्ताम् आसन् आसीः आस्तम् आस्त अहं मनसे यत् तिष्ठति तत् वदामि आसीः आस्तम् आस्त आस्तम् आस्व आस्म
आसम् आसम् आस्व आत्म इति अपि अहं
समीचीनं वा इति
समीचीनम् इति तु मन्ये आसम् एकवारं पुनः वदतु भगिनि अस्ति आस्तां सन्ति
अस्ति
आस्ताम्
आसन्
आसन् आसन्
आसन् आसीः आसम्
आसीत् आस्ताम् आसन् क्षम्यतां मम दोष आसीत् आस्ताम्
आसीत् आस्ताम् आसन् आसीः आस्तम् आस्त आसम् आस्व आत्म.
हा उत्तमम्. आसीत् आस्ताम् आसन् आसीः आस्तम्
आस्तम्
आस्तम् एकं पेटर्न् अस्ति तत्र.
हा तां दीर्घ अस्ति मध्यमपुरुषः तु ह्रस्व अस्ति.
हा हा एकं सर्वदा किञ्चित् तत्र एव भवति. अस्तु सो आसीः आस्तम् तदनन्तरं आस्तकारान्त अन्ते अस्ति आस्त. उत्तमपुरुष
आत्म
नो नो आसम् एकवचन आसम्
आसम् आसम् सोरि आसम् आस्व आत्म
आस्व आत्म. उत्तमं सुन्दरं. शैलिजा भगिनी लट् रूपाणि वदतु.
आं भगिनि लट् रूपाणि
लट्
अस्ति अस्ति स्तः सन्ति असि स्तः स्ता अस्मि स्वाहा स्मा स्मः.
तत्तु वयं जानीमः एव वारं वारं कृत्वा इति तु मनसि तिष्ठति इति मन्ये. मनसि तिष्ठति वा न वा भगिनि भवत्याः मनसि तिष्ठति सर्वाणि रूपाणि तत्र अस्ति सन्ति
अस्मि
वारं वारं कृत्वा वयं किञ्चित् किञ्चित्. अस्तु अधुना
प्रथमपुरुष अण्ड् मध्यमपुरुष एकवचनरूपाणि ऐ मीन् लट् रूपाणि मनसि तिष्ठति. अन्यदा रूपाणि किञ्चित् प्राक्टिस् अभ्यासं
अदृष्ट्वा वदतु भगिनि. लट् रूपाणि अदृष्ट्वा इत्युक्ते अदृष्ट्वा विदौट् लुकिङ्ग् वदतु भगिनि. अदृष्ट्वा
लट् रूपं भगिनि
लट् रूपाणि
लट् इस्
अस्ति
वाच् शब्दः भगिनि अस्ति ओन्लि नो अस्ति स्तः सन्ति मध्यमपुरुष असि 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 स्तः असि स्तः स्ता स्ता अस्मि उत्तमपुरुष एकवचनम् अस्मि अस्मि स्तः स्तः
अस्मि स्वः
अस्मि स्तः स्मः स्मः
स्वः स्मः स्वः स्वः इत्युक्ते अहम् अहम् अस्मि आवां स्वः आवां स्वः आवां स्वः इति मनसि तिष्ठन्ति
स्वः. आं भगिनि
इत्युक्ते अहम् अस्मि अहम् अस्मि अहम् अस्मि आवां स्वः आवां स्वः वयं स्मः वयं स्मः. सि वयम् अपि च स्म द्वे पदे
आखरी चिह्नं मकार अस्ति स्तः
आखरी चिह्न तु न वर्ण अस्ति म किन्तु द्विवचने किं
तकार
वकार इत्युक्ते
यु आर् टाकिङ्ग् अबौट् उत्तमपुरुष वा भगिनि उत्तमपुरुष द्विवचनं वा
द्विवचन अहम् अस्मि
अहम् अस्मि
आवां वकार अस्ति मध्ये आवाम्
आं भगिनि
स्वः
युवां वयं स्मः
वयं स्मः वयं स्मः.
It's now easy, Bhagini. I can relate last letter.
Adrishtva vadatu.
Aham, asti, asti, pratyama purusha asti, staha santi, asi, asi, staha, त्वम् असि युवां 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 स्तः
महाप्राण
स्तः स्तः यूयं स्थ उत्तमपुरुष अहमस्मि. This one you already told her, is your way. Like vayam avam avam svaha and vayam smaha.
Tadeva tadeva
uttama badli madhyama purusha dvivachana rupam tataha asti. Madhyama purusha dvivachana rupam tataha asti.
Taha magini
न भगिनि मध्यमपुरुष अस् धातुतः अदादिगणे लट् रूपाणि मध्यमपुरुष सर्वाणि रूपाणि वदतु. असि
अस्ति मध्यमरूप असि तथ ततः सः तथ
कुत्र दत्तं भगिनि
स्तः अस्ति स्तः सन्ति असि ततः
दत्तं भगिनि अहं मम पार्श्वे तानि रूपाणि
ततः इति अहं मन्ये.
कथं भगिनि कुत्र अस्तु पश्यतु सर्वाणि रूपाणि अहं चाट् मध्ये प्रेषयामि.
अस्ति ततः रैट्
कुत्र भगिनि सकार तदनन्तरं थकार अकार अह स्थः पश्यतु तत्र चाट् मध्ये अहं प्रेषयामि.
ओके सो ऐ एम् प्रनौन्सिङ्ग् इट् राङ्ग्
स तथ तदेव
I am putting an additional is there.
You are adding
a takara. Yeah, got it.
Asi, staha, sta. Tadeva. Uttamam. Astu. Aduna. Astu. Prathama udaranam patatu bhagini. Sandeepaha.
Sandeepaha. Dashavadane. Vidyalayah asit. विद्यालये आसीत्
वदतु एकमेकं स्वीकृत्य.
आसीत् इति शब्दः भूतकालरूपं प्रथमपुरुषे एकवचनशब्दः अस्ति. विद्यालयः पुल्लिङ्गशब्दः
लङ्लकार भूतकाल तु समीचीनं किन्तु अपि च लङ् अस्ति
लङ् रूपम्
लङ् इत्युक्ते
लङ् इस् पास्ट् टेन्स्
भूतकालार्थक किन्तु लकार अस्ति प्रत्यय तत्र कृदन्तप्रत्यय नास्ति लकार एव अस्ति तत्र लकाररूपं भूतकाल
लकाररूपम् आसीत् आं भगिनि ऐ गाट् इट्
अस्तु सो सन्दीपः दशवादने विद्यालये आसीत् अस्तु आसीत् क्रियापदं लङ् रूपं प्रथम पुरुष एकवचन अस् धातुतः अदादिगणे आयाति आल् दिस् यु हेव् टु थिङ्क्
आं भगिनि असि आसीत् इति शब्दः लकाररूपं लङ् रूपम् अस्ति अस् धातुतः अदादिगणे अकर्मकक्रियापदम् अस्ति
अकर्मकधातु क्रियापदं तु न
धातु बट् ऐ एम् टाकिङ्ग् अबौट् आसीत् नो भगिनि ऐ एम् नाट् टाकिङ्ग् अबौट् अस् सो स्टिल् ऐ हेव् टु यूस् धातु हियर्
यु वर् टाकिङ्ग् अबौट् अस् धातुतः सो देन् ऐ एम् थिङ्किङ्ग् अस्
धातु आं भगिनि धातु अस् धातु अकर्मकक्रियापदम्
अस्ति चेत् किमपि क्रियापदं न स्वीकरोति आसीत् आसीत् अधुना लघुवाक्यं
कः आसीत् सन्दीपः आसीत्।
उत्तमं, सुन्दरं। कः आसीत्? सन्दीपः आसीत्। अस्तु, कुत्र आसीत्?
कुत्र सन्दीपः कुत्र आसीत्? सन्दीपः विद्यालये आसीत्।
सन्दीपः विद्यालये आसीत्। अस्तु, कति समये अपि च कथं प्रश्नवाचक कथम् अस्ति?
प्रश्नवाचकं समये समये सूचक प्रश्नवाचकम् इस् कुत्र कदा कदा इस् प्रश्नवाचक शब्दः
कदा
सन्दीपः कदा कदा आसीत् कदा विद्यालये आसीत् सन्दीपः दशवादने विद्यालये आसीत्
उत्तमं दशवादने विद्यालये आसीत् सुन्दरम् अस्तु कविता भगिनी अग्रिमम्
दिव्या
दीक्षिता भगिनी स्वागतं पपजी नमस्ते स्वागतम्
नमस्कार भगिनी
एकचत्वारिंशत्तमे पुटे भगिनी एक कोष्टकं दत्तम्
आं भगिनी दिव्या एकादशवादने क्रीडाङ्गणे दैट आई विल जस्ट टेल यू बट आसीत् कि वो 11 o'clock को प्ले ग्राउंड में आती है आती नहीं गई गई क्रीडांगण
कोपि वदतु क्रीडांगणम यथा फलं फलं फले फलानि
नपुंसकलिङ्गम्
तद् दत्तमेव क्रीडाङ्गणम् अन्तिम अम् आयाति इत्युक्ते प्रायः नपुंसकलिङ्गं फलम् इति अधुना किं विभक्ति योजयाम अधुना
प्ले ग्राउण्ड् मे जाति इत्युक्ते
उपरि पश्यतु भगिनी विद्यालये इत्युक्ते
कर्मपदम्
न भगिनी कर्मपदम् अस् धातु अकर्मकधातु इत्युक्ते किं कर्मपदं न स्वीकरोति
ओके ओके सो क्रीडाङ्गणे क्रीडाङ्गणं मे जाति है
हा
तो
इत्युक्ते शैलजा भगिनी किमपि उक्तवती भवती शृणोति वा
yes, I was listening.
इत्युक्ते अस् धातु कीदृशधातु अकर्मकधातु अकर्मक इत्युक्ते किम् दीक्षिका भगिनी अकर्मकधातु इत्युक्ते किम्
अकर्मक धातु जो क्रियापदं नहीं लेती है ना
वही है हाउ डू यू नो इन अ सेंटेंस व्हाट टू डू इत्युक्ते
इट डजंट टेक इट अकर्मक डू आई नो
जैसे मैं बोलूंगी मैंने खाया कोई पूछेगा हाँ. क्या खाया ओ मैंने खाना खाया तो जो खाने की क्रिया है जो चबाने की खाने की क्रिया है वो किस पे पड़ी भोजन पे पड़ी ना किसको चबाया मैंने किसको खाया खाने को खाया ना
हाँ.
खाना इज द कर्म इट इज द कर्मपदम कर्मपदम इत्युक्ते किम जिस चीज पे क्रिया होती है जो करता है वो कर्तृपदम हो गया जो क्रियापदम है वो क्रिया का एक नाम हो गया लेकिन जो क्रिया है वो किस पर होती है वो कर्मपदम होता है सो मैंने खाया मैंने देखा क्या देखा यू कैन इजिली आंसर विद अ वस्तु which means that there is something that is receiving the sight. Jo meri nigah hai, jo meri drishti hai, wo kis cheez pe padi? Ped pe padi. Maine ped dekha. Ped was the receiver of my action of seeing. Now, agar main bolti hu, main roi. मैं रोई कोई क्या बोलेगा क्या रोई रोने की क्रिया जो है वो वो किसी चीज पे पड़ती नहीं रोने की क्रिया ऐसे कई एक क्रिया होती हैं जो किसी चीज पे नहीं पड़ती कोई वस्तु नहीं स्वीकारती कोई भी वस्तु नहीं स्वीकारती वो चीज मैं सोई क्या सोई अरे सोई It doesn't even make sense to ask a kriyapadam. Main thi. Asit nityukte kim? Main thi. Main kya thi? Main thi. So asit, so then how do you know which one takes, which one doesn't take? Atra ashtadhyayi.com madhye dattam. As dhatu asti. If you don't know which is the dhatu, how to find out which is the dhatu in ashtadhyayi.com? What is the procedure? Kopi vadatu.
Yes, so I've put the word asit and I've selected a song which is Parasmai Padi Akarmakaha Pada Adadihi Gane.
Akarmakaha Ityukte Vakye. जब वाक्य में आप इस धातु के कोई भी रूप लगाएंगे उस वाक्य में इस क्रिया के कोई कर्म पदम नहीं होंगे ये आपको ध्यान में रखना है सो प्रथम वाक्यम किम संदीपः दशवादने विद्यालये आसीत नाउ यू हैव टू नो अस धातु से आसीत आया तो विद्यालय दशवादने संदीप इनमें से कोई भी क्रिया पदम नहीं हो सकती नाउ क्रिया पदम विद्यालय अपि च दशवादने क्रिया पदम सॉरी कर्म पदम नास्ति चेत कीदृश पदम दशवादने विद्यालय कीदृश पदाने पदे कौन से रूप के है ये विद्यालय किम रूपम किम
विद्यालय
में एकवचन
सप्तमी एकवचन धन्यवाद भगिनी सप्तमी कथम जानीमः रामः रामौ रामाः रामम रामम ये इसको रोज दिन में सुबह 10 बार शाम को 10 बार दोपहर को 10 बार पढ़ के रामे अंत में देखे सप्तमी रामे इत्युक्ते विद्यालये समानेव दशवादने अधिकरण So these tables, you just have to know. This Rama table is the first one to remember. That is why it is given first. इसको एक बार मन में बैठेगा तो वो एक रूप बैठ जाता है. अच्छा A है, शायद सप्तमी हो. फिर कोई भी पद सुनोगी, बाद में A आएगा तो लगेगा, ओ शायद A हो. देखो तो हो सकता है. At least you know where to go in the table. शब्द मंजरी में कैसे उसको प्रयोग करें, उसका थोड़ा तो अभ्यास पड़ेगा. रोज करने से मन में बैठेगा फिर आकारांत स्त्रीलिंग जो होती है उनके सारे रूप आने चाहिए रमा रमे रमाह रमे रमाम रमे रमाह रमया रमाभ्याम रमाई इस प्रकार का वो चलेगा रामाभिहि रामेभ्यः रामाभ्यः जैसे भी चलता है उसको बराबर बैठना है रमा रमे हम लोग मेरे को सीता की आदत है या फिर Any word you like, you take. पर उसमें आदत वो बैठ जाना चाहिए अभी पापा को बोलूंगी तो पापा का अभी भी निकलेगा रटा और रटाया God knows how many decades ago. 70 decades. तो ये इस प्रकार का बैठ मन में बैठ जाएगा अस्तु अधुना द्वितीय वाक्यम वदतु भगिनी
दिव्या एकादशवादने क्रीडाङ्गणे आसीत्।
आसीत्, उत्तमम्। अपि अधुना क्रीडाङ्गणे सप्तमी अस्ति, अपि च एकदशवादने अपि सप्तमी अस्ति, किन्तु द्वयोः मध्ये विशेषणविशेष्यभावः अस्ति वा? एकः प्रश्नः
नास्ति।
नास्ति, उत्तमं। किमर्थं? क्रीडाङ्गण तु विषय भिन्न अस्ति, समयविषय भिन्न अस्ति। उत्तमं, धन्यवादः भगिनी। दीक्षिका भगिनी अग्रिमं करोतु।
आं भगिनि, कृष्णः द्वादशवादने गृहे द्वादशवादने गृहे आसीत्।
उत्तमं, गृहे आसीत्। लघुवाक्यं किम्?
लघुवाक्य गृहे आसीत्।
हा, गृहे आसीत्, अपि च कृष्णः आसीत्।
कृष्णः आसीत्,
कृष्णः आसीत्, उत्तमम्। पापाजी अग्रिमं पठतु।
भगिनि, बिफोर् दिस् केन् यु जस्ट् टेल् मी वाट्स् हेपनिङ्ग्, लैक् ऐ एम् टोटलि लास्ट्।
पेज् 41,
या, वाट् इस् दट् नम्बर् इन् बिट्वीन् द टु कोलम्?
टैम्,
ओ दट्स् अ टैम्,
10 o'clock 11 o'clock।
ओ ओके ओके,
सन्दीप् इस् एट् द विद्यालये एट् 10 o'clock। सी,
ओके,
सेन्स् वी आर् कन्स्ट्रक्टिङ्ग्।
दश नहीं है पापा, साथ लिखा है।
सप्तवादने विद्यालये,
नहीं ग्रंथालय लिखा है।
ग्रंथालये
अंतिम आसीत् वा?
अहम है ना,
अहम,
अहम है ना पापा, तो आसीत नहीं आएगा ना, अस्मि आएगा क्या?
लंग लकार भगिनी,
क्या आएगा? अहम के साथ आसन आएगा।
आसम, आसम,
अहम, आसम आएगा, आसम,
अहम,
आसम, आसम।
पुनः वदतु दीपिका भगिनी वाक्यम।
हाँ, अहम, अहं सप्तवादने ग्रन्थालये आसम्।
आसम्,
आसम्, म म पूरा है, आसम् कि म में हलन्त है।
हलन्त, आसम्, आसम्,
हलन्त है ना, आसम्,
आसम्, उत्तमम्। शैलजा भगिनी आवाम, आवाम अस्ति चेत् सम्पूर्णवाक्यं वदतु।
आम् भगिनी, आवां विद्यालये, आवां
सप्तवादने,
आवां सप्तवादने ग्रन्थालये आस्मा।
आवाम् अस्ति चेत्,
आवाम् अस्ति चेत् आस्मा,
आस्व,
आवाम् आस्व। आं भगिनि, आस्व
द्विवचनरूपम् अधुना एव वयं कृतवन्तः। आस्व
भगिनि, आस्व, वयम् अस्ति चेत् यूयम् अस्ति चेत् आस्म,
वयम् अस्ति चेत् आस्म, यूयम् अस्ति चेत्,
यूयम् अस्ति चेत् आस्तः, अस्तः,
अस्तः, सुधा भगिनी यूयं वदतु। यूयं,
यूयं सप्तवादने ग्रन्थालये आस्त,
आस्त, उत्तमं। त्वम् अस्ति चेत् कविता भगिनी, त्वम्,
त्वं सप्तवादने ग्रन्थालये आस्म सेकेण्ड्
टेबल् टेबल् भगिनि अस् धातुतः टेबल् वदतु त्वम् अस्ति चेत् किं रूपं स्वीकुर्मः सि ऐ हेव् पोस्टेड् इन् चाट् आल्सो
त्वं दिस् इस् नाट् लङ्कार नो दिस् इस् द प्रेसेण्ट्
अस् धातु भगिनी अष्टाध्यायी डाट् काम् मध्ये एकवारं
यस् इट्स् ओपन् इन् फ्रण्ट् आफ् मी भगिनी त्वम् इस् वाट् I am figuring out.
Tvam informal
use. Astam, yeah, this one, second one.
Second one.
Oh no, it will be...
Tvam is Eka Vachana.
Asihi.
Asihi.
Right, Asihi.
See, fundamentals is gone. Go back to the initial classes, it will come right back. Tvam Asihi.
Yes, again.
Punavadatu Tvam Saptavadane.
त्वं सप्तवादने ग्रन्थालये आसीः
आसीः अस्तु अधुना अस्तु पपाजी युवाम् अस्ति चेत्
युवां युवां से बनाइए युवां सप्तवादने
युवां
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 नहीं सप्तवादने ग्रंथालये
चैट मध्ये पश्यतु अहं दत्तम
युवां के साथ आस्तम
आस्तम
आस्तम आस्तम
आस्तम उत्तम
युवां आस्तम
युवां आस्तम
युवाम् युवाम् आस्तम्
यूयम् अस्ति चेत् वदतु कविता भगिनी
यूयम् आसत्
यूयम् अस्ति चेत्
यूयं सप्तवादने ग्रन्थालये यू बहुवचन थर्ड् मेरे और् आस्त सेकेण्ड् का बहुवचन मध्यमपुरुष
उत्तमम् शैलजा भगिनी वयं
आं भगिनि
वयं
वयम् इस् बहुवचनं वयं सप्तवादने ग्रन्थालये आसम् आस्म सोरि वयम् आस्म
आस्म उत्तमं सुधा भगिनी बालकाः
बालकाः सप्तवादने ग्रन्थालये आसन्
आसन् आसन् कीदृश
प्रथमपुरुष बहुवचन
वचन आसन् उत्तमम् उत्तमं सीते अस्ति चेत् दीप्षिका भगिनी सीते दीक्षिका भगिनी अस्ति वा न श्रूयते भगिनी अन्म्यूट् करोतु अस्तु गतवती अस्तु शैलजा भगिनी सीते
आं भगिनि सीते अस्ति चेत् आसीत् अस्ति भगिनि प्रथमपुरुषे एकवचनशब्दः अस्ति
अस्ति वा सीते
सीते
कीदृशपदं
सीता सीता इस् आकारान्त स्त्रीलिङ्गशब्दः अस्ति
प्रथमविभक्तिरूपाणि वदतु
आं भगिनि रमावत् सीता सीता इस् प्रथमविभक्ति इस् रमा सीता सीते सीताः आं भगिनि सीते इस् प्रथमपुरुष बहुवचनशब्दः द्विवचनशब्दः अस्ति सो सो इट् इस् स्तः रमे रमे सप्तवादने सीते सप्तवादने ग्रन्थालये स्तः
सः तु लट् अस्ति भगिनि लङ् अस्ति चेत्
लङ् अस्ति चेत् आस्तम्
आस्तं वा आस्ताम्
आस्ताम्
प्रथमपुरुष अस्ति
प्रथमपुरुष अस्ति चेत् आस्तम् आस्ताम् so it is confusing bhagini astam is for madhyama purusha bahuvachana shabda asti but astam astam
punavada
saptavadane granthalaye astam
astam ha site
prathama vibhakti dvivachana shabda kriya padam is astam
उत्तमं कविता भगिनी जनौ
जनौ जनौ सप्तवादने ग्रन्थालये आस्ताम् आस्ताम्
आस्ताम् उत्तमम् उत्तमं हा युवाम् अस्ति चेत् सुधा भगिनी
आं भगिनि युवां सप्तवादने ग्रन्थालये आस्तम्
आस्तं युवाम् आस्तं रामौ आस्तां युवाम् आस्तं जनौ आस्ताम् आवाम् आवां वदतु दीक्षिका भगिनी
आवां सप्तवादने ग्रन्थालये आसव आस्व आस्व
आस्व
आस्व
आवाम
आवाम आवाम आस्व
युवाम आस्तम
आस्तम आवाम आस्व
आवाम आस्व युवाम आस्तम अपि च रामौ आस्ताम्
रामौ आस्ताम्
रामौ आस्ताम् युवाम्
युवाम् आस्तम् आवाम् आस्व
आवाम् आस्व उत्तमम् अस्तु सर्वाणि रूपाणि वदतु दीक्षिका भगिनी लघु लघु वाक्यानि स्वीकृत्य इत्युक्ते रामः अपि च
रामः रामः आसीत् रामः आसीत् रामौ आस्तां रामाः आसन् त्वम् आसीः आवाम् आस्तम् नै युवाम् आस्तम् यूयम् आस्त
आस्त
आस्त युवाम् आस्तम् यूयम् आस्त अहम् आसम् आवाम् आस्व वयम् आस्म
उत्तमं शैलजा भगिनी बालकः स्वीकृत्य करोतु
वाट् इस् दट् भगिनि
सर्वाणि रूपाणि वदतु लघुवाक्यानि
दिव्या रमावत् भगिनि
दिव्या
आसीत् दिव्ये आस्तां दिव्याः आसन् सो त्वम् त्वम् असीः युवाम् आस्तं यूयम् आस्ता अहम् आस्मा आवाम् आसम् अहम् आसम् you and avam asva vayam asma
asma uttamam uttamam kavita bagini shirastram swikritya vadatu shirastram
shirastram asit shirastre as शिरस्त्रम् आसीत् शिरस्त्रे आस्तां शिरस्त्राणि आसन् सर ये तो नॉन लिविंग है तो उसमें भी हम त्वम लगा सकते हैं
त्वम नहीं त्वम इज नॉट अबाउट शिरस्त्र एनीमोर त्वम इज अबाउट तुम तू जो भी तू है जो भी तुम्हारे सामने है अगर तुमको टोपी से बात करना है यू कैन कॉल इट तू नॉट अ प्रॉब्लम बट इट इज स्टिल तू ओनली
ठीक है त्वम आसी ही युवाम आस्तम यूयम आस्त अहम आसम आवाम आस्व वयम आस्म
उत्तमम उत्तमम सुधा भगिनी
आम भगिनी
कथा
कथा कथा आसीत कथा आसीत कते आस्ताम कथाः आसन त्वम आसीहि युवाम आस्तम यूयम आस्त अहम आस्तम आवाम आस्व वयम आस्म
उत्तमम उत्तमम बीना भगिनी एकवारं करोति वा
No, Bhagini, I can. Yesterday's letter, yesterday's lesson was more. I could understand. This is going over my head. I need to work on it.
Papa ji, Rama.
Rama, से बोलिए. ये पूरा अस धातु के लंग में पूरा बोलना है. Rama से. जैसे रामः आसीत् रामौ आस्ताम् रामाः आसन्
टेबल है पापा के सामने
हाँ
टेबल पापा के सामने है लंग टेबल है हाँ तो उनको याद
हमें देनी पड़ेगी
इट इज ऑन चैट ही कैन गो टू चैट एक बार हम करो तुम राम रामह
ये टेबल से बोलना है आपको ये है आसीत की टेबल ये नया लिखी है
रामह
रामह आसीत
आसीत द्विवचने
रामह आस्ताम रामौ आस्ताम
उत्तमम् त्वम्
त्वम् आसीः युवाम् आस्तम् यूयम् आस्त
अहम्
आसम् आवाम् आस्व वयम् आस्म
उत्तमम् सुन्दरम् अस्तु वारं वारं कृत्वा मनसि किञ्चित् अस्तु अन्तिमवाक्यमस्ति वयं तत्र दत्तं शैलजा भगिनी करोतु वयं कोष्टके दत्तं वयं पठतु शैलजा भगिनी अस्ति वा
Sorry, Bhagna, I thought I have unmuted. Sorry. Yes, Bhagna. Vayam Astavadane Vittakoshaha
Vittakoshaha Parivartanam Karutu
Vittakoshe Vayam Astavadane
Vittakoshe
No idea, Bhagna.
Copy Vadatu
Takoshe
Bank
बैंक वित्त वित्त इज अबाउट मनी वित्त बैंक पठतु भगिनि वयम्
अष्टवादने वित्तकोशे आस्मा
उत्तमं वयम् आस्मा उत्तमम् अवगतम् अधुना सर्वे अवगतम् कविता भगिनी अवगतम्
आं भगिनि
इत्युक्ते वारं वारं कृत्वा अधुना वयं किं कुर्मः पुनः इति कथां पठामः इत्युक्ते किं 39 पेज् अन्ते अधोभागे कथा इत्युक्ते पुनः पठामः अपि च अहमिति स्वीकृत्य परिवर्तनं कुर्मः इत्युक्ते अहम् आसम् अस्ति चेत् किम् अभवत् अहम् आसम् प्रथमवाक्यम् अहम् आसम् एकस्मिन् दिने अहम् आसम् मम नाम किमपि भवत्याः नाम अस्ति चेत् अस्तु एकवारं प्रयत्नं करोतु अस्तु सुधा भगिनी आरम्भं करोतु
आं भगिनि एकस्मिन् दिवसे अहम् आसम् मम नाम सुधा एकदा अहं नगरम् अगच्छत्
उत्तमम् इत्युक्ते लङ् रूपम् अगच्छत् सुन्दरं तदनन्तरं कथं जानीमः अगच्छत् शब्दमञ्जर्यां कुत्र दत्तं पुटसङ्ख्या 118 करोति वा 112 द्वितीय टेबल् लङ् अस्ति सर्वे पश्यति वा पश्यन्ति वा सर्वे
आं भगिनि
हा इत्युक्ते लङ् रूपाणि त् ताम् अन् स् तं त अम्बम इति परस्मैपदी अस्ति चेत् तामन् स् तं त अम्बम त तामन् स् तं त अम्बम त तामन् स् तं त अम्बम इत्युक्ते गच्छत् गच्छतां गच्छन् अवगतम्
आं भगिनि
हा
न भगिनि ऐ कुड् नाट् फालो दट्
हा अस्तु 112 शब्दमञ्जर्यां भगिनि
ऐ एम् लुकिङ्ग् एट् द टेबल् भगिनि
हा अस्तु अत्र किं दत्तं द एण्डिङ्ग्स् आर् गिवन् दीस् आर् द प्रत्ययस् they don't always follow like that as simple as they are sometimes some parivartan happens but it gives you the basic for ta taman ta ityukte where did the ta come from bagini that is a pratyaya so for example what did we do with as dhatu we did asit that ta is given here That end to in asit is given there. That is the pratyaya or the suffix.
Got it.
Then asam, so tam is given. Then asan, so an is given. The suffixes are given here. Now in Madhyama Purusha, su is given. Now we are confused what to do. So there are some times with depending on the dhatu, some parivartana has happened. Then you have to look at the rupa of the dhatu. So in our story, what do we have? We have gam dhatu. How do we have gam dhatu? Because gachati is there. Gachati is there. Gachati comes from gam dhatu. How do you know? You don't know. So you type gachati, you go to ashtadhyayi.com and there is your gam dhatu. Then in gam, you go to lung. सुधा भगिनी सर्वाणि पठतु
अगच्छत् अगच्छत् अगच्छताम् अगच्छन् अगच्छस् अगच्छतम् अगच्छत अगच्छम् अगच्छाव अगच्छाम
So this sir in Madhyama Purusha, actually between sir and visarga, there is a conversion going on in Sanskrit. Like manas is also the same as manaha. Sir and visarga, they interconvert. They interconvert. So what happens here is that they have simply said that it ends with a visarga by giving this suffix. That is the lang rupam in Madhyama Purusha ekavachana ends with a visarga. Is it the only one that ends with a visarga in lang? In many, in most cases that is all. In fact, maybe in all, I don't know if there are exceptions. So now with gam, in lang you always start with a. In asit you cannot tell because already the verb itself is as. As becomes a. Why does it become a? Because another a has been added in front. Where did this additional a income come from? In lung, the first thing you do is you add a in front of the verb. So gachami, first thing you will do is a gacha. Now you have to figure out what is the ending. Oh, I see. A gacha, a gacham. I get it. Now, Ramaha gachati. That is lat. To convert to lung, you have to first add a. So, Ramaha a gacha. Now what to do? Ta, a gachat. Then, Ramau gachataha. Lat rupam. Now in lung you have to add a. So Ramau a gachatam. Why? That tam is given there. Avagatam Kavita Bhagini. See how the, it's like math actually, mathematics. You take the dhatu, that is your middle main word, main sound, main shabda, main dhatu. You can either add stuff in front of it or you can add stuff in behind it. You can either prefix or suffix it. Sometimes both happen. And then sandhi will happen also sometimes in between. But here we are simply practicing lung rupam. Lung ityukte fast. When I say aham agacham, it means I went, main gayi. Fast tense. Megai thi. Agacham. If I said Rama agachat, it means Ram gaye. So in past tense, the verb has a prefix in front. And then the dhatu is not gum here. The gum has transformed to gacha. Why? Because of so many reasons. So many sutras are there. And like I keep saying, Panini did not create the language, he simply created the grammar for the existing Sanskrit and made it perfect. Perfect in the sense that his small little ashtadhyayi.com is the shortest, fully complete, without any glitches, command program is there. The whole software is there. Now you decide what you want to say. So, that is what we are doing now. We are following that prakriya. Does that make sense to everybody?
Yes, Madhyama Purusha Ekvachana. Could you just revise that a bit?
Madhyama Purusha.
So,
Asit Asti. Prathama Purusha Kim. Takar Ante Ayati. A Adav Ayati. In the front A comes. Takar Ante Ayati. Asit. Now you do the same thing and bring it to Madhyama Purusha. Asi. Now it is not Ta but Sa. Sa and Visarga are interchangeable in Sanskrit. Depending on the circumstances, they will change from one to the other. Sa will become a visarga and visarga will be returned back to sa depending on the condition. So manas, we say manas. Manas means mind is a sakaranta padam, napumsakalingam padam. Manas, mind, is a napumsakalingam padam which ends with a sa. Manas, pratipadikam, manas. That becomes manaha. Sa becomes ha, visarga. So often in suffixes, when you see a sa, then you know, oh, probably there is a visarga. Not necessary, but likely, especially if it is just a sa, sa like that. Halanta sa is often a visarga. But like in sva, sma, then it is different. It is already attached to a vakara or a makara. It won't change. But sa, sitting alone by itself will often become a visarga.
All right, Bhagini.
Bhagini, mama doshaha aham uktavati gachas, gachas iti, gachaha iti,
gachat agachat
agachah iti uktavyam
na agacham na
madhyama purusha ekavachana
madhyama purusha to tatra ayati na ityukte
na na sa sa is there right this sound for as dhatu we will say asihi for gam dhatu I said agam agachas it is agachah right I didn't put the visarga
see in my head the sa became a visarga yeah agachas is actually agachah correct uttamam bhagini I'm glad you caught it
but bhagini this will be agacham no because it is for me uttama purusha
एकदा
अहं नगरम् अगच्छम्
उत्तमम् किन्तु शी इस् टाकिङ्ग् अबौट् मध्यमपुरुष अगच्छः नाट् अगच्छस् सी सुधा भगिनी सा द स देर् एण्ड् शी सेड् अगच्छस् सो ऐ एम् टेलिङ्ग् एण्ड् वेन् ऐ सेड् स बिकम्स् विसर्ग शी अण्डर्स्टुड् देट् नौ इट् शुड् बि अगच्छः मध्यमपुरुष भगिनी अवगतम् अवगतं सर्वे अस्तु सो वाट् वी ऐ वाण्ट् यु टु डू इस् दिस् टेक् एनी थ्री और् फोर् क्रियापदं फ्रोम् दिस् पदानि फ्रोम् दिस् कथा लैक् गच्छति स्थापयति उपविशति क्रीणाति एनी फोर् देर् आर् मेनी मेनी क्रिया पदं देर् पश्यति So many are there. You take any four and you convert, not convert, you look, you think about what their lung rupam will be and then you look it up in the ashtadhyayi.com and you compare it to these pratyayas that are given on page 112 of Shabda Manjari. Just practice in lung. See, lut we have been doing for 1.5 years now about. Now let us learn another one, lung past tense, and how to get the rupani. And you can, I can teach them to you, and we can study it and move on and forget it. There's no point in that. So I want us to really work on it so that we actually, something stays in our mind. When we read it, we can understand. So the first thing is very easy. There is a in front of the dhatu. That itself is a giveaway. Oh, is this lung? Immediately, gachcha something, you say, oh, this is lung. Which of the nine is it? Like that. So any four you take and you find the lung, write them down in your notebook, make short sentences. Astiva? Grahapata rupena.
Ambagini.
Just try. Make it fun. If you have children, do it with them. They love this kind of stuff. It's like math. They love it. Astu. Uttamam. Aduna viramamaha. Kim antima. Kavita bhagini. Antima shanti part vat vakti vichati vadya.
Aam bhagini.
Na vadati.
Purnamadah, Purnamidam, पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। ॐ शान्तिः शान्तिः शान्तिः।
सर्वं कृष्णार्पणमस्तु। हरिः ओम्। अस्तु सर्वेभ्यः नमो नमः। पापाजी प्रणाम।
थैंक यू भगिनी।
Thank you. Well, sorry, Bhagini, a little bit. But you know, if you start looking at the past classes, it will all start to make sense. Because
Yesterday's class, I was able to, at least find, read and understand what's been written today. It's like it's going too heavy.
Even if you don't listen to all the classes, it's a lot of hours. But if you start reading the Vyasa Pustakam from the beginning, it
will. Yeah, I have to start. I still didn't get the book.
You need the book. You have to get the book and start studying.
And then I just
you can find a time online to work with somebody in this group.
Sudha is there, so I will I'll take time with. The first thing is I have to get the book, so let me do that first. Thank you so much, Bhagini. Namaskara.
Bhagini, today is Mahasood Baras.
And today is also Varaha Murthy's birthday.
Oh, Varahamurti, wow.
Varaha Bhagwan.
Yeah, Bhagwan ka. We can't say it's birthday, appeared on this day, they say, right?
So, what is the celebration?
I don't celebrate anyway. In India, I just go to the temple for everything. That's all.
And they will decorate and puja and
mithai. And they do the usual celebration, they do special puja for Varaha Murti.
Very nice. Good to know, Bhagini. Astu. Dhanyavada Kavita Bhagini, Dhanyavada Dina Bhagini, Sarvebhya Namo Namaha.
Dhanyavada Bhagini.
Dhanyavada Bhagini.
Dhanyavada, Bahu Dhanyavada.
Haraha Sarvebhya.